सुग्रीवस्य हनुमान नामना सेनापतिः अभवत्। सः वायुः पुत्रः सन् बलवान् वीर्यवान् च। सः वानरराजस्य आज्ञया रामस्य अवनाय सर्वं जम्बूद्वीपं भ्रमन् सीताम् अनुऐच्छत्। बहु च भ्रान्त्वा ताम् लङ्कायां रावणेन बद्धाम् अविन्दत्। तत्र गत्वा जनकपुत्री तेन आश्वासिता। भर्ता इह आगमिष्यति रावणं मारयिष्यति त्वां मोक्ष्यति च इति ताम हनुमान उक्तवान्। अथ नगरं दग्धवान् द्वीपात् च निर्गतवान्। रामस्य अन्तिकं च पुनः आगत्य तं सर्वं वृत्तान्तम् अवेदयत्।